विद्यां देहि मुखे मनोहरतरां वाणीं तनोनैरुजम्।
पुत्रं चाति गुणोत्तरं च विभवम् वित्तान्यनन्तानि च।
कीर्तिं देहि सुधाम चारुललनां वाजीभराजीरथम्।
सौभाग्यं सकलं त्वदीयचरणे भक्तिं सदा निश्चलाम्।